वाग्देव्यै च विद्महे विरिञ्चि पत्न्यै च धीमहि तन्नो वाणी प्रचोदयात्। ॐ वाग्देव्यै च विद्महे विरिञ्चि पत्न्यै च धीमहि तन्नो वाणी प्रचोदयात्। ॐ वाग्देव्यै च विद्महे विरिञ्चि पत्न्यै च धीमहि तन्नो वाणी प्रचोदयात्। ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्। ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्। ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्। श्री चंडी प्रातस्मरण स्तोत्रम्। प्रातस्मरामि शरदिन्दु करोज्वलाभां षड्रत्नवन्मकर कुण्डलहारभूषां दिव्यायुधोर्जित सुनील सहस्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशां। प्रातर्नमामि महिषासुरचण्डमुण्ड शुम्भासुरप्रमुखदैत्यविनाशदक्षां ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम्। प्रातर्भजामि भजताम् अभिलाषदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीं संसारबन्धनविमोचनहेतुभूताम् मायां परां समधिगम्य परस्य विष्णोः ॐ भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः वेदवेदाङ्गवेदान्त विद्यास्थानेभ्य एव च जय जय देवी चराचरसारे कुचयुगशोभितमुक्ताहारे वीणापुस्तकराजितहस्ते भगवति भारति देवि नमस्ते। विश्वरूपस्य भार्यासि पद्मे पद्मालये शुभे सर्वतः पाहि मां देवी महालक्ष्मी नमोस्तुते। अन्नपूर्णे सदा पूर्णे शंकर प्राणवल्लभे ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि मे पार्वती। माता मे पार्वती देवी पिता देवो महेश्वरः बान्धवा शिवभक्ताश्च स्वदेशो भुवनत्रयम्। बान्धवा शिवभक्ताश्च स्वदेशो भुवनत्रयम्।